अमरकोशे दिग्वर्गः दिशस्तु कुकुभः काष्ठाः आशाश्च हरितश्चताः इत्यस्मिन् पादे ककुभः इति एतावत् पर्यन्तं समभूत् अनन्तरं काष्ठाः इति काशन्ते प्रकाशन्ते इति काष्ठाः काश्रुदीप्तौ इत्यस्माद् धातोः इदं पदं निष्पन्नम् प्रकाशन्ते दिशः अतः काष्ठाः इति उच्यन्ते अनन्तरम् आशाश्च आसमन्तात् अश्नुवन्तीत्याशाः अशू व्याप्तौ इत्यस्माद् धातोः इदं पदं निष्पन्नं नाम सम्यक् सर्वत्र आसमन्तात् व्याप्ताः अत एव दिशाम् आशाः इति नाम अनन्तरं हरितश्च हरन्ति तमांसि हरितः तकारान्तस्त्रीलिङ्गशब्दः हुरीङ् हरणे इत्यस्माद् धातोः इदं पदं निष्पन्नं तमांसि हरन्ति अत एव दिशां हरितः इति हर्यते आभिः अप्रतीतिरिति हरितः नाम आभिः एवं दिशा दिग्भिः इति आभिः नाम दिग्भिः अज्ञानं हर्यते अज्ञानं अपगच्छति अत एव हरितः इति हरितशब्दस्य अन्यः अर्थः ता इति तच्छब्दसाहचर्यात् दिग्वाचकाः पञ्च स्त्रीलिङ्गाः ताः इति अत्र पदेन ये ये दिग्वाचकाः दिशः ककुभः काष्ठाः आशाः हरितः इति एते पदानि यानि सन्ति एतानि सर्वाण्यपि स्त्रीलिङ्गकाः इति सूच्यते ताः इति पदेन अनन्तरं प्राच्यवाची प्रतीत्यस्ताः पूर्वदक्षिणपश्चिमाः उत्तरादिगुदीची स्यात् दिश्यन्तु त्रिषु दिग्भवे अनन्तरश्लोकः इदानीम् अत्र दिशां नामानि प्रथमं प्राची प्राची नाम प्राक् प्रथमम् अञ्चति अस्यां रविः इति प्राची ईकारान्तस्त्रीलिङ्गशब्दः प्रथमादिक् प्राची दिक् नाम यस्यां सूर्योदयः भवति सा दिक् प्राची दिक् इति उच्यते ननु अत्र किमर्थं प्राची नाम अत्रैव प्रथमं प्राक् रविः अस्यां दिशि अञ्चति अत एव प्राची इति उच्यते अनन्तरम् अवाची अवाक् अञ्चति दक्षिणायने न अस्यां रविरिति अवाची एतदपि इकारान्तस्त्रीलिङ्गशब्दः नाम सूर्यः दक्षिणायने दक्षिणायनेन अत्र दक्षिणायने अस्यां दिशि तत्र द्योतते अत एव अवाची इति तत्र पश्चिमदिशः नाम ईकारान्तस्त्रीलिङ्गशब्दः अनन्तरं प्राची अवाची इत्यत्र अवमध्याह्ने अञ्चति अस्याम् इति अवाची मध्याह्ने मध्याह्ने अत्र अञ्चति इति अवाची इति तस्यैव तस्याः एव अपरं नाम प्राची अवाची इति अनन्तरं प्रतीची ईकारान्तस्त्रीलिङ्गशब्दः